एषा रेडियो नेपालः। सम्प्रति समाचारः श्रूयन्ताम्। प्रस्तोत्री रत्नावली शर्मा। राष्ट्रपतिना रामचन्द्र पौडेलेन संघीय संसदः द्वयोः सदनयोः अधिवेशनम् आहूतमस्ति। मन्त्री परिषदः परामर्शिन राष्ट्रपतिना पौडेलेन अस्यैव माघ मासस्य अष्टादशे दिवसे दिवा एकवादनाय संसदः शीतकालिकाधिवेशनम् आहूतमस्ति। संसदः अधिवेशनस्य अन्त्यम् आह्वानं च सर्वकारस्य परामर्शे राष्ट्रपतिना विधीयते इति सांविधानिकी व्यवस्था वर्तते। संसदः वर्षाकालिकाधिवेशनं गतस्य भाद्रमासस्य एकत्रिंशे दिवसे समाप्तम् आसीत्। प्रधानमन्त्रिणा केपी शर्मा ओलिना सगरमाथा संवाद कार्यक्रमस्य शुभारम्भो विहितोऽस्ति। एतत् ख्रीष्टवर्षीयस्य अन्ताराष्ट्रिय हिमनदी वर्षस्य अवसरे प्रधानमन्त्री मन्त्री परिषदः कार्यालये वन वातावरण मन्त्रालयेन परराष्ट्र मन्त्रालयेन च ह्य आयोजिते कार्यक्रमे प्रधानमन्त्री ओली आगामिनः ज्येष्ठ मासस्य द्वितीय दिवसात् चतुर्थं दिवसं यावत् काष्ठमण्डपे आयोक्ष्यमाणस्य सगरमाथा संवाद कार्यक्रमस्य शुभारम्भं विहितवान्। संवाद कार्यक्रमस्य शुभारम्भं विदधानः प्रधानमन्त्री ओली जलवायु परिवर्तन विषये जागरूकतया सहैव विश्वसमुदायस्य ध्यानं केन्द्रितं विधातुं संवाद कार्यक्रमो महत्वपूर्ण भविष्यति इति प्रावोचत्। प्रधानमन्त्री ओली नेपालेन जलवायु न्यायस्य विषये अन्तर्राष्ट्रिय जगति सशक्ततया समस्या उत्थाप्यन्ते इति चर्चयन् सगरमाथा शिखरेण विश्वेस्मिन् विश्वे परिचितस्य नेपालस्य पक्षतः सगरमाथा संवाद कार्यक्रमस्य आयोजना विहितेति सर्वै सम्मत्य कार्यक्रमोऽयं फलदायी विधेयः इति प्रावोचत्। कार्यक्रमे वन वातावरण मन्त्रालयस्य सहसचिवः डाक्टर महेश्वर ढकालः पर्यटनस्य खाद्य सुरक्षायाः जलवायु परिवर्तनस्य प्रभाव न्यूनीकरण प्रभृतिषु विषयेषु महत्वपूर्णेषु सार्वजनिनेषु च विषयेषु विश्वस्य ध्यानम् आकृष्य संकट न्यूनीकरणाय सगरमाथा संवाद कार्यक्रम आयोक्ष्यते इति उदैरयत्। कार्यक्रमे उपप्रधानमन्त्री मन्त्रिणः सचिवः विशिष्टाधिकारिणः नेपालस्थितानां कूटनीतिक नियोगानां प्रमुखाः प्रतिनिधयश्च सहभागिनः आसन्। सर्वकारेण प्रथमवारं जलवायु परिवर्तनस्य हिमालयस्य मानवजीवनस्य च भविष्यं केन्द्रे संस्थाप्य एवंविध विश्वव्यापी संवादः आयोक्ष्यते। राष्ट्रपतेः रामचन्द्र पौडेलस्य समक्षम् आदिवासी जनजात्यायोगस्य वार्षिकं प्रतिवेदनं प्रस्तुतमस्ति। आयोगस्य अध्यक्षेण रामबहादुर थापा मगर इत्यनेन शीतल निवासवर्तिने राष्ट्रपति कार्यालये आयोजिते समारोहे नेपालस्य संविधानस्य अनुसारेण आयोगस्य गतार्थिक वर्षस्य वार्षिकं प्रतिवेदनं प्रस्तुतमिति राष्ट्रपति कार्यालयेन ज्ञापितं वर्तते। प्रधानमन्त्री केपी शर्मा ओली गदति सूचना प्रविध्यो सहायेन गृहे एव स्थित्वा संस्थानां पञ्जीकरणस्य मूल्याभिवृद्धिकरस्य च पञ्जीकरणस्य प्रणाल्या विकासो विधास्यते। बालुवाटारवर्तिनी प्रधानमन्त्री निवासे सूचना प्रविधि क्षेत्रस्य उद्योगिभिः विज्ञैश्च सह परामृशन् प्रधानमन्त्री ओली समयोऽयं सूचना प्रविध्यो वर्तते इति चर्चयन् अस्य बोधपुरस्सरं कार्यं करणीयमिति समस्पष्टयत्। कार्यक्रमे सहभागिभिः उद्योगिभिः विज्ञैश्च सम्प्रत्येव सर्वकारेण आनीते अध्यादेशे नेपाल नागरिकैः सूचना प्रविध्यो क्षेत्रे देशे विदेशेषु च अन्तर्राष्ट्रियां सूचना प्रविधि संस्थां संस्थापयितुं शक्यते इति उत्साहोलब्ध इत्युक्तमासीत्। स्वास्थ्य जनसंख्या मन्त्रालयेन सर्वकारीय चिकित्सालयेषु रोगिणां प्रवाहं न्यूनीकर्तुं सुरक्षा निकायैः संचालितैः चिकित्सालयैः सार्धं सहकार्यस्य प्रस्तावः विहितोऽस्ति। प्रहरी महानिरीक्षकेण सुरक्षा निकायेन संचालितानां स्वास्थ्य संस्थानां प्रमुखैः सह ह्य सम्भूते उपवेशे स्वास्थ्य जनसंख्या मन्त्री प्रदीप पौडेलः सर्वकारीय चिकित्सालयेषु क्रमप्रतीक्षायाः स्थितौ सुरक्षा निकायानां चिकित्सालयेषु शल्यक्रिया कक्षेषु स्थाने रिक्ते सेवां प्रदातुं सहकार्यस्य प्रस्तावं विहितवान्। मन्त्री पौडेलः संघीय चिकित्सालयेषु सेवासमयं वर्धयितुम् अतिरिक्त समये कार्यं कृत्वा रोगिणां प्रवाहस्य व्यवस्थापनं विधेयमानम् अस्ति इति असूचयत्। सुरक्षा निकायानां चिकित्सालये सह सहकार्यं विधाय सर्वकारीय चिकित्सालयानां प्रवाह व्यवस्थापनाय अतिरिक्त सचिवस्य टंक बराकुटी इत्यस्य नेतृत्वे मन्त्रालयेन कार्यदलं निर्मितमस्ति। उपवेशे प्रहरी महानिरीक्षक वसन्त कुंवर नेपाली सेनाया उच्च अधिकारिणश्च सहभागिन आसन्। ऊर्जा जलस्रोत सिंचन मन्त्री दीपक खड्का जलविद्युत क्षेत्रे निवेशं विधातुं दात्री निकायान् अनुरोणद्धि। दात्री निकायानां प्रमुखै प्रतिनिधिभिस्सह ह्य सम्भूते विमर्शने मन्त्री खड्का आगामिषु दिनेषु सहयोगस्य नैरन्तर्याय अनुरोणत्। विमर्शने ऐषयिक वित्तकोषः, विश्वकोषागारः, जापान अन्तर्राष्ट्रिय सहयोग नियोगः, बेलायत देशस्य अन्तर्राष्ट्रिय सहयोग नियोगः, संयुक्त राष्ट्र संघीय विकास कार्यक्रमः प्रभृतीनां दात्री निकायानां प्रमुखैः प्रतिनिधिभिश्च ऊर्जा क्षेत्रस्य विकासाय निरन्तरं सहयोगो भविष्यति इति उक्तं वर्तते। गृहमन्त्री रमेश लेखकः निगदति विपद व्यवस्थापनस्य क्षेत्रेषु सर्वकारेण कार्यं विधीयते। उदयपुर जनपदस्य बेलका नगरपालिकायां कोशी नद्या प्रवाहितस्य स्थलस्य अवलोकनं विदधान गृहमन्त्री लेखकः परवर्तिनि समये आराष्ट्रं विपदा सम्भूतां क्षतिं केन्द्रे संस्थाप्य सर्वकारेण आगामिनः वर्षायामस्य पूर्वमेव संकटयुतानि क्षेत्राणि परिचित्य संकटस्य न्यूनीकरणाय कार्यं करिष्यते इति अभाषत। मन्त्री लेखकः बहुभि वर्षैः सप्तकोशी नद्या जलविप्लवस्य जलमग्नतायाश्च कारणात् जनधनक्षतिं विचार्य सर्वकारेण तत्कालम् आवश्यकं कार्यं विधास्यते इति अवदत्। संचार सूचना प्रविधि मन्त्री पृथ्वी सुब्बा गुरूङ भाषते मन्त्रालयेन निर्मिते एतत् विक्रम वर्षीये एआई इति राष्ट्रिय कृत्रिम बौद्धिक नीति प्रारूपे कृत्रिम बौद्धिकतायाः क्षेत्रे कार्यरतानां विज्ञानां सम्बद्धानां जनानां च परामर्शान् आहृत्य प्रभावकारिणं दीर्घकालिकं च विधातुं प्रयत्यते। संचार मन्त्रालये ह्य सम्भूते विमर्शने संचार मन्त्री गुरूङ एआई नामकी कृत्रिम बौद्धिकतायाः क्षेत्रे आवश्यकानां समस्तानां प्रावधानानां नीतौ समावेशो विधास्यते इति प्रावोचत्। नेकपा माओवादी केन्द्रस्य अध्यक्षः पुष्पकमल दाहाल प्रचण्डः निगदति माओवादी केन्द्रस्य प्राथमिकता सर्वकारस्य संघटने नास्ति प्रत्युतः जनताभि सम्बन्ध विस्तारो वर्तते। चितवन जनपदे ह्य संचारकर्मिभिस्सह भाषमाणः अध्यक्षः प्रचण्डः वर्तमान सर्वकारः चतुरशीत्यधिक द्विसहस्रतम वैक्रमावदस्य निर्वाचनं यावत् सर्वकारस्यास्य नैरन्तर्यार्थं माओवादी केन्द्रम् आशावादी वर्तत इति अभाषत। प्रतिनिधिसभायाः उद्योग वाणिज्य श्रमोपभोक्तृ हितसमितौ विमृश्यमानस्य विद्युतीय व्यापारस्य विषये व्यवस्थापयितुं निर्मिते विधेयके समितेः सदस्यानां सहमतिर्धृता अस्ति। समितेः ह्यस्तनोपवेशे सांसदः क्रेतुः हानिर्न स्यादिति विक्रेतुः दायित्वं निश्चयम् इत्यत्र बलं ददानः लघुद्योगापि विधेयकेन प्रोत्साहनीया इत्युक्तवन्तः। विद्युतीय माध्यमेन आदिष्टे वस्तूनि गुणस्तरहीने सति तत्प्रत्यावर्तन व्यवस्थां विधिसम्मततया व्यवस्थापयितुं सांसदैः बलं दत्तमस्ति। चितवन राष्ट्रिय निकुञ्जेन सायंकाले कसरा मार्गं प्रयुञ्जानैः सावधानताम् अवर्तयितुम् अनुरुद्धमस्ति इति समाचारः।